रमा जाने जाने यदिह तव भक्तेषु विभवो न सद्यः संपद्यः तदिह मदकृत्वात् अशमिनां प्रशान्तिं कृत्वैव प्रदिशसि ततः काममखिलं प्रशान्तेषु क्षिप्रं न खलु भवदीये च्युतिकथा सद्यः प्रसादरुषितान् विधिशङ्करादीन् केचिद्विभो निजगुणानुगुणं भजन्तः भ्रष्टा भवन्ति बत कष्टम् अदीर्घदृष्ट्या स्पष्टं वृकासुरः उदाहरणं किलास्मिन् शकुनिजः स तु नारद मे कदा त्वरिततोषमपृच्छदधीश्वरं स च दिदेशगिरीशमुपासितुं न तु भवन्तम् अबन्धुम् असाधुषु तपस्तप्त्वा घोरं स खलु कुपितः सप्तमदिने शिरश्चित्त्वा सद्यः पुरहरमुपस्थाप्य पुरतः अतिक्षुद्रं रौद्रं शिरसि करधानेन निधनं जगन्नाथाद्बव्रे भवति विमुखानां क्व शुभधीः मोक्तारं बन्धमुक्तो हरिणपतिरिव प्राद्रवत्सोऽथ रुद्रं दैत्याद्भीत्यास्मदेवो दिशि दिशि वलते पृष्ठतो दत्तदृष्टिः तूष्णीके सर्वलोके तव पदमधिरोक्ष्यन्तम् उद्वीक्ष्य सर्वं दूरादेवाग्रतस्त्वं पटुवटुवपुषा तस्थिषे दानवाय भद्रं ते शाकुनेय भ्रमसि किमधुना त्वं पिशाचस्य वाचा सन्देहश्चेन्मदुक्तौ तव किमु न करोषि अङ्गुलीम् अङ्गमौळौ इत्थं त्वद्वाक्यमूढः शिरसि कृतकरः सोपतत् छिन्नपातं भ्रंशो हि एवं परोपासितुः अपि च गतिः शूलिनोऽपि त्वमेव भृगुं किल सरस्वतीनिकटवासिनः तापसाः त्रिमूर्तिषु समादिशन् अधिकसत्त्वतां वेदितुम् अयं पुनः अनादरात् उदितरुद्धरोषे विधौ हरेऽपि च जिहिंसिषौ गिरिजयाधृते त्वामगात् सुप्तं रमाङ्कभुवि पङ्कजलोचनं त्वां विप्रे विनिघ्नतिपदेन मुदोत्थितस्त्वं सर्वं क्षमस्व मुनिवर्य भवेत् सदा मे त्वत्पादचिह्नम् इह भूषणमित्यवादीः निश्चित्यते च सुदृढं त्वयि बद्धभावाः सारस्वताः मुनिवराः दधिरे विमोक्षं त्वामेव मच्युता पुनश्च्युतिदोषहीनं सत्त्वोच्चयैकतनुमेव वयं भजामः जगत्सृष्ट्यादौ त्वां निगमनिवहैर्वन्दिभिरिव स्तुतं विष्णो सच्चित्परमरस निर्द्वैतवपुषं परात्मानं भूमन् पशुपवनिता भाग्यनिवहं परीतापश्रान्त्यै पवनपुरवासिन् परिभजे ॐ तत्सदिति श्रीमन्नारायणीये एकोननवतितमं दशकं समाप्तं श्रीहरये नमः रमा रमणगोविन्दा गोविन्दा श्रीकृष्णार्पणमस्तु।